मृत्तिकाय विमलां रक्तां शुकाच्छादितां हे मां भोजयुगाभयां कुशकरिं रत्नोल्लसत्कुण्डलां सर्वाभीष्टफलप्रदां त्रिनयनां नागेन्द्रहारोज्ज्वलां वन्दे सर्वभयापहां त्रिजगतां पापापहारिं परां